एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रतिनिधिसभायाः गतदिवसीयोपवेशेन एतत् विक्रमवर्षीये आर्थिक विधेयकम् राष्ट्रऋणोत्थापन विधेयकम् च बहुमतेन पारितीकृते स्तः। उपवेशे अर्थमन्त्रिणा डा प्रकाश शरण महतित्यनेन प्रस्तुतम् एतद् विधेयकद्वयम् बहुमतेन पारितीकृतम् अस्ति। सभायाम् आर्थिक विधेयकस्य विमर्शनस्य क्रमे सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् अर्थमन्त्री डा महत मूल्याभिवृद्धिकरस्य माध्यमेन करस्य सीमाम् विस्तार्य वित्तीय प्रणाल्या अभ्यन्तरे सर्वेषाम् व्यवसायानाम् संयोजन पूर्वकम् अर्थतन्त्रम् गतिशीलम् विधातुम् आर्थिक विधेयकम् मानितम् इति अवोचत। अर्थमन्त्री डाक्टर महत अकथयत उत्पादन कर्तृभिः स्वल्प कृषकैश्च आपण मूल्यस्य प्राप्तेः वातावरणम् स्रष्टुम् मध्यस्थानुचित लाभ ग्राहिणाम् चलखेलम् त्रुटयितुम् च राज्य संयन्त्रेण सक्रियेण भाव्यम्। एवमेव अर्थमन्त्री डाक्टर महत राष्ट्र ऋणोत्थापन विधेयक सम्बद्धे विमर्शने उत्थापितान् प्रश्नान् उत्तरयन् अभाषत उपयोग क्षेत्रस्य प्रभावकारितायाश्च आधारेण व्यय ऋणे ग्रहीष्येते। अर्थमन्त्री डाक्टर महत राष्ट्राय अनावश्यकस्य आर्थिक भारस्य निवारणत्वेन आर्थिकोपार्जनस्य क्षेत्रे व्ययीकरणत्वेन च ऋणम् ग्रहीष्यते इति समस्पष्टयत। तत्पूर्वम् प्रतिनिधिसभाया गतदिवसीयोपवेशेन राज्य संहिता सम्बद्धान् कतिचिन् नेपालादि नियमान् संशोधयितुम् निर्मितम् एतद् वैक्रमाब्दम् विधेयकम् विचार्यतामिति विषयक प्रस्तावः सर्वसम्मत्या स्वीकृतोऽस्ति। उपवेशे विधिन्याय संसदीय विषय मन्त्रिणा धनराज गुरूङ इत्यनेन राष्ट्रिय सभायाम् उत्पन्नस्य एतस्य विधेयकस्य विचारणा सम्बद्ध प्रस्तावः प्रस्तुतः आसीत्। विधेयकमाश्रित्य विहिते सैद्धान्तिक विमर्शने सांसदैः उत्थापितान् प्रश्नान् उत्तरयन् मन्त्री गुरूङ चक्रवृद्धि धनग्राहकेभ्य पीडितानां जनानां पक्षम् समर्थ्य सांसदैः व्यक्ताम् धारणाम् प्रस्तुतान् विषयान् च प्रकरणगत विमर्शने सुधार्य चलितुम् शक्यते इत्यगदत। विमर्शने सहभागिनः सांसदाः चक्रवृद्धि धनग्राहकेभ्य पीडितेभ्यो जनेभ्यो न्याय प्रदानत्वेन विधेयकम् आनेतव्यमिति चर्चयन्तः अभासन्त। अन्तिम समये सहसा विधेयकम् न पारितीकर्तव्यम्। सांसदाः राष्ट्रिय सभया द्रुतमार्गेण विधेयकम् पारितीकृतम्। प्रतिनिधिसभायाम् च समयस्य प्रायः समाप्तेः अवस्थायाम् विमृश्यमानम् अस्ति इति तर्कयन्तः अवोचन् सर्वेभ्य पीडितेभ्यो न्याय प्रदानत्वेन विधेयः निर्माणस्य दिशि सर्वैः ध्यानम् प्रदातव्यम्। सांसदैः चक्रवृद्धि धन समस्यायाः सम्बोधनाय अध्यादेशेन सदपि विहिता अग्रेसरता अनुकूला स्थिति चर्चयद्भि अनौपचारिक रूपेण विहितम् आर्थिक कार्यम् प्रभावकारी विधातुम् परिस्थित्यनुसारेण विधिम् निर्माय अग्रे वर्धितव्यमिति उदीरितम्। सांसदाः स्थापितानाम् राजनीतिक दलानाम् नेतृणामेव संरक्षणेन चक्रवृद्धि धन समस्या वर्धमाना स्थिति आरोपयन्त सकल नागरिकै वित्तीयोपागमनस्य प्रापणस्य आवश्यकताम् प्रादर्शयन्। प्रतिनिधिसभायाः अपरोपवेशः परश्वो बुधवासरे दिवात्रिवादने वस्ता। कोशी प्रदेशस्य प्रदेश प्रमुखेण परशुराम खापुङ इत्यनेन प्रदेशस्य मुख्यमन्त्रिणः नियुक्तये अस्यैव आषाढस्य एकविंश दिवसस्य बृहस्पतिवासरस्य सायं पञ्चवादनम् यावत् सत्वम् प्रस्तोतुम् ह्य सायम् आहूतम् वर्तते। प्रदेश प्रमुखेण खापुङ इत्यनेन नेपालस्य संविधानस्य 67-ऐकशततम्याः धारायाः द्वितीयोपधारायाः अनुसारेण कोशी प्रदेशसभायाम् कस्यापि दलस्य स्पष्ट बहुमतस्य अभावात् प्रदेशसभायाम् प्रतिनिधित्व कुर्वताम् द्वयोः द्व्यधिकानाम् वा दलानाम् समर्थनेन बहुमतम् प्राप्तुम् समर्थ प्रदेशसभा सदस्यः अस्यैव आषाढस्य एकविंश दिवसस्य बृहस्पतिवासरस्य सायं पञ्चवादनम् यावद् प्रदेश सर्वकारस्य मुख्यमन्त्रिणम् नियोज्य तस्य अध्यक्षतायाम् मन्त्रिपरिषदः संघटनस्य प्रयोजनाय स्वस्य स्वत्वम् प्रस्तोतुम् आहूतो वर्तते। प्रधानमन्त्री नेकपा माओवादी केन्द्रस्य अध्यक्षश्च पुष्पकमल दाहाल प्रचण्डः निगदति देश जनतयोर्हिताय नेकपादलम् पुनर्घटनीयम्। भक्तपुरस्य नयाँ ठिमी स्थाने ह्य आयोजितम् कम्युनिष्ट दलस्य संस्थापक नेतुः नारायण विलास जोशिनः चतुस्त्रिंशत्तमम् स्मृति दिवसम् सम्बोधयन् प्रधानमन्त्री प्रचण्डः नेकपा एमाले दलेन सह एकताम् विधाय निर्मितस्य नेकपा दलस्य स्थायित्वाभावः दुर्भाग्यम् सदपि पुनः एकताभियानाय प्रवर्तनीयमिति धारणाम् व्यक्तवान्। प्रधानमन्त्री प्रचण्डः नेकपा दलैकतायाः स्थायित्वाभावस्य कृते कस्मै अपि दोषम आक्षिप्तुम नापेक्षितम परम एकवारम असफलम सदपि ततशिक्षाम गृहीत्वा पुनः अग्रे वर्धनीयमिति अवोचत। प्रधानमन्त्री प्रचण्ड समाजस्य रूपान्तरणाय समाजवादी संयुतिम निर्माय वामपन्थीनाम एकता ईप्सितेति स्पष्टीकृतवान्। कार्यक्रमे पूर्व प्रधानमन्त्री माधव कुमार नेपालः भाषत अत परम आर्थिक क्रान्तिम प्रति सर्वैः प्रवर्तनीयम्। भूस्खलनस्य कारणेन अवरूद्ध नारायणगढ मुङलिङ मार्गखण्ड उभयपक्षत पुनः सञ्चालितो वर्तते। भूस्खलनस्य अपसारणानन्तरं ह्य सायम् आसन्न षड्वादनात् उभयपक्षत मार्गसौ पुनः सञ्चालित इति चितवन जनपद यातायात व्यवस्थापन कार्यालयेन ज्ञापितं वर्तते। शनिश्चरवासरस्य सायम् इच्छा कामना ग्रामपालिकायाः पञ्चमवडा क्षेत्रस्य तृतीय सेतौ भूस्खलनेन मार्गः अवरूद्धः आसीत्। भूस्खलनस्य अपसारणस्य पश्चात् पक्षद्वय स्थितानि यातायात साधनानि गन्तव्यस्थलं प्रति प्रेषितानीति चितवन जनपदीय यातायात व्यवस्थापन प्रहरी प्रमुख राजकुमार तामाङ ज्ञापयति। उपप्रधान गृहमन्त्री नारायण काजी श्रेष्ठ कथयति नेपालस्य विकास प्रक्रियायै आर्थिक सहयोगं वर्धयितुं चीनदेश अनुकूलो वर्तते। पञ्चदिवसीय चीनदेशीय भ्रमणं प्रपूर्य स्वदेशं प्रत्यागत उपप्रधान गृहमन्त्री श्रेष्ठ ह्य त्रिभुवनान्तर्राष्ट्रिय विमानस्थले सञ्चारकर्मीभिः सह भाषमाण चीनदेशस्य उपप्रधानमन्त्री सिचुवान प्रान्तस्य दलस्य प्रमुखश्च हलिङफङ नेपालाय आगामी दिनेषु आर्थिक सहयोगं वर्धयितुम् अनुकूल दृष्ट इति अवोदयत। उपप्रधानमन्त्री श्रेष्ठ स्वस्य चीनदेशीय भ्रमणस्य क्रमे नेपाल चीनदेशयोः सम्बन्धस्य सुदृढीकरणाय व्यापार निवेशनयोः प्रवर्धनाय आर्थिक विकासाय च बृहद् रूपेण विमृष्टमिति असूचयत। भ्रमणस्य क्रमे उपप्रधानमन्त्रिणा श्रेष्ठस्य चीनदेशीयस्य उपप्रधानमन्त्रिणा हलिङफङ इत्यस्य च मध्ये द्विपक्षीय मेलवार्ता सम्पन्नासीत्। वार्तायां देशद्वयस्य मध्ये व्यापार निवेशन पर्यटनान्तराबद्धतादि विषयेषु विमर्शनेन सह चीनदेशेन नेपालाय वित्तीय विधीयमानस्य सहयोगस्य अतिरिक्त वर्धनस्य विषये च विमृष्टम् आसीत्। संचार सूचना प्रविधि मन्त्री रेखा शर्मा वदति श्रमजीवी पत्रकारैः प्राप्तव्यं पारिश्रमिकं पारदर्शी विधातव्यम्। न्यूनतम पारिश्रमिक निर्धारण समित्या ह्य काष्ठमण्डपे आयोजितायाम् अन्तरक्रियायां मन्त्री शर्मा श्रमस्य मूल्यं सर्वैः प्राप्तव्यमिति भाषमाणा नैजक्षेत्रेण सञ्चालितैः संचार माध्यमैः प्रदातव्यं पारिश्रमिकं पारदर्शी विधातुं बलं प्रादात्। अन्तरक्रियायां प्रेस काउन्सिल नेपालस्य अध्यक्ष बालकृष्ण बस्नेत नेपाल पत्रकार महासंघस्य अध्यक्ष विपुल पोखरेल विज्ञापन समिति अध्यक्ष लक्ष्मण हुमागाई न्यूनतम पारिश्रमिक निर्धारण समिति अध्यक्ष संगीता खड्काच विचारान उदयरयन। अद्य ज्ञानदातारं गुरुं प्रति श्रद्धा भक्ति प्रकटय्य गुरु पूर्णिमा दिवस समायोज्यते। प्राचीनकालस्य गुरूकुल शिक्षायाः प्रारब्धेऽस्मिन् दिवसे विद्यार्थिनः विद्या विनय शिष्टता प्रदर्शन पुरस्सरं कर्तव्या कर्तव्ये प्रशिक्ष्य उज्ज्वल भविष्यस्य मार्गद्रष्टारं गुरुं मानयन्ति। गुरोः उपदेशं विना जनमानसे यथार्थ ज्ञानं न समुदेति इत्यतः गुरुः ब्रह्म विष्णु महेश्वरवत् सम्मान्यो भवतीति शास्त्रेषु गुरोर्महत्वं वर्णितं वर्तते। गुरुपूर्णिमायाः अवसरे अद्य विशेषतः शिक्षण संस्थासु विविध कार्यक्रमाः आयोज्यन्ते। अद्यैव व्यास जयन्ती च ज्ञाननिधिं व्यासं प्रपूज्य आयोज्यते। महर्षिणा व्यासेन वेदान् विभज्य महाभारत पुराणादीन् ग्रन्थान् विलिख्य च ज्ञानदीपः ज्वालितः इति मन्यते। बाल्वाटारवर्तिन्यः ललिता निवास भूम्याः अपचलनस्य प्रकरणे अतिरिक्तं जनत्रयं निगृहीतं वर्तते। नेपाल प्रहरिणा केन्द्रीय अनुसन्धान निकायेन काष्ठमण्डप महानगरपालिकायाः पञ्चमवडा क्षेत्रस्य तात्कालिक वडा सचिव शिवजी भट्टराई भूमि कृषक बाबुराजा मुहर्जन तात्कालिक भूमापन सर्वेक्षक घमान कुमार कार्की च निगृहीताः सन्तीति वरिष्ठ प्रहरी परीक्षक दिनेश आचार्यः सूचयति। श्रमवृत्ति सामाजिक सुरक्षा मन्त्री शरद सिंह भण्डारी भाषते नेपालेन सह दौत्य सम्बन्ध युतेषु देशेषु नेपाली श्रमिकैः गमनाय अनुमति प्राप्तव्या इति समाचारः।